सर्वेभ्यो नमस्कारः. यः विषयः प्रवर्तमानः अस्ति सः भूतकालरूपम् इति. तत्र वयं गीतासोपने वयं किं कृतवन्तः इत्युक्ते, पूर्वं वयं नामपदं तस्य रूपाणि अकारान्त इकारान्त तत् सर्वं दृष्टवन्तः. तदनन्तरं नामपदस्य विभक्ति तत्सर्वं दृष्टवन्तः. तदनन्तरं क्रियापदस्य अपि रूपं कीदृशं भवति अपि दृष्टवन्तः. किन्तु प्रथमतया वयं वर्तमानकालरूपं दृष्टवन्तः, यत् लट् लकारः इति वदामः. इदानीं भूतकालरूपम् इति यदस्ति तस्य अभ्यासः अद्यतनविषयः भवति. अस्तु, तत्र लट्लकारस्य भूतकालस्य रूपद्वयं भवति. तत्र गतवान् इति अपि अगच्छत् इति तादृशरूपद्वयं पश्यामः अद्य. अस्तु, सन्ध्या भगिनी नमस्कारः.
नमस्ते महोदय.
नमस्कारः भगिनि. अस्तु, अत्र प्रथमतया वयं किं कुर्मः, गृहपाठः यद् आसीत् गतवर्गे, वयम् अत्र पुटसङ्ख्या 74, 75, 76 इति पश्यतु गीतासोपाने प्रथमभागे. तत्र वयं किं गतवर्गे वयं किं कृतवन्तः इत्युक्ते, तत्र पेज् 75 मध्ये, पूर्वम् अहं बालः आसम्, इदानीं युवकः अस्मि इति तादृशानि वाक्यानि. तत्र केवलम् अस् धातोः अस्मि अस्ति इति तस्य भूतकालरूपम् उपयुज्य आसीत् इति यद् अत्र पेज् 77 मध्ये अस्ति, तद् उपयुज्य वाक्यानि करोतु इति गृहपाठः आसीत्. कः प्रथमतया वदति, नरेश महोदय वदति वा?
आम् महोदय.
अस्तु,
पूर्वम् अहं पेन्सिल्वेनिया राज्ये आसम्, इदानीम् ओहायो राज्ये अस्मि. पूर्वं भारतदेशे बहु अस्वच्छता आसीत्, इदानीम् अवस्थायां सुधारः अस्ति. पूर्वं जनाः प्रातःकाले समाचारपत्रस्य प्रतीक्षां कुर्वन् आसीत्, इदानीं सर्वदा दूरवाण्यां समाचार पश्यन्ति.
समाचारम् अथवा समाचारान् पश्यन्ति.
समाचारं
कर्मपदम् इति.
पूर्वं तु मम मित्रं द्विचक्रिकया सन्तुष्टः आसीत्, इदानीं कार्यानम् इच्छति.
पूर्वं
जनाः गृहे एव पाकं कुर्वन्ति स्म, इदानीं ते प्रायः बहिः खादन्ति.
समीचीनं महोदय, धन्यवादः. सरला भगिनी नमस्कारः.
नमस्कारः
भगिनि. अस्तु, अग्रे कः पठति, गीताञ्जलि भगिनी पठति
वा? अहं पठामि महोदय, अहं पठामि.
अस्तु अस्तु, सरला भगिनी.
गृहपाठः. पूर्वं लता मङ्गेश्वर, आशा भोसले च प्रसिद्धे.
भगिनी किञ्चित् उच्चैः वदतु भगिनि.
पूर्वं लता मङ्गेश्वर, आशा भोसले च प्रसिद्धे गायके आस्ता, इदानीं श्रेया घोषल, सुमुखी चौहान च प्रसिद्धे गायके स्तः. पूर्वं नरेन्द्र मोदी चाय विक्रेता आसीत्, इदानीं सः भारतदेशस्य प्रधानमन्त्री अस्ति. गतशनिवासरे अहम् आध्यात्मिकशिबिरं गतवती. ह्य शनिवासरे अहं प्रीतिभोजनं गतवती. पूर्वम् अहं भारतदेशस्य नागरिकः आसम्, इदानीम् अमेरिका भारतदेश नागरस्त्री सिटिजन्
नागरिकीय
नागरस्त्री इति दत्तमस्ति नागरक पुल्लिङ्गे नागरस्त्री स्त्रीलिङ्गे
अस्ति
आसम् इदानीम् अमेरिकादेशस्य अपगृहीत अडाप्टेड् नागरस्त्री अस्मि अडाप्टेड् सिटिजन्
अस्तु भगिनि अस्तु
अद्य अहं आहारं स्वीकरोमि श्वः अहं निराहारा भविष्यामि उपवासं करिष्यामि इति
अस्तु अस्तु भगिनि समीचीनम् अस्तु धन्यवादः अस्तु गीताञ्जलि भगिनी वदति वा इदानीम्
अस्तु महोदय अहं किञ्चित् वाक्यं
यत् कृतवती तत् वदतु भगिनि चिन्ता मास्तु
पूर्वं सर्वे जनाः लघवः आसन् इदानीं सर्वे जनाः लघवः न आसन्
इत्युक्ते किं भगिनि
पूर्वं सर्वे जनाः स्माल्
अस्तु 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 हा अस्तु हा अस्तु अस्तु इदानीम् अवगच्छामि धन्यवादः अस्तु अग्रे
पूर्वम् अहं शाटिका न धारयामि
इदानीम् अग्रे अद्य एव एतद् भूतकालरूपं कथं वक्तव्यम् इति पश्यामः धारयामि स्म इति धारयामि स्म इति वदतु
धारयामि स्म
न धारयामि स्म धारितवती प्रायः अस्ति
इदानीम् अहं शाटिका धरितामि धारयामि
धरामि अथवा
धारयामि
अस्तु अस्तु
पूर्वम् अहं भारतदेशे आसम् इदानीम् अहम् अमेरिकादेशे
अस्मि
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 पूर्वम् अहं प्रथमाध्याय पठितुं शक्नुवन्त आसम्
शक्नोमि स्म इति वद शक्नोमि स्म इति वदतु इदानीम् सत्यं सत्यं किन्तु इदानीं भूतकालरूपम् अद्य एव वयं कुर्मः इति कृत्वा केवलं शक्नोमि स्म इति वदतु
अहं
संस्कृत
पुस्तके प्रथमाभ्यासं पठामि स्म इदानीम् अहं द्वितीय अध्याय पठामि
द्वितीयाध्यायं पठामि
अध्यायं
पठामि अस्तु भगिनि समीचीनं धन्यवादः भानुचेतनी महोदय वक्तुम् इच्छति वा
महोदय किञ्चित् कालः
अस्तु 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 रघुपति महोदय
हा महोदय
अस्तु
राज्यस्य नाम पूर्वं मैसूरु आसीत् इदानीं कर्णाटक अस्ति अस्माकं देशे पूर्वं दरिद्रता आसीत् इदानीं तस्याः अपकरणा जाता अस्ति. पूर्वं मम संस्कृतज्ञानं न्यूनम् आसीत्, इदानीं भाषायाः अध्ययनेन वृद्धिः जातः अस्ति.
समीचीनं महोदय.
अमेरिकादेशस्य राष्ट्रपतिः ओबामा आसीत् पूर्वम् ओबामा आसीत्, इदानीम् अस्य देशस्य राष्ट्रपतिः डोनाल्ड् ट्रम्प् महोदय अस्ति. पूर्वम् अस्माकं व्यवहारभाषा संस्कृतम् आसीत्, इदानीं तु व्यवहारभाषा आङ्ग्लभाषा अस्ति.
अन्यत् अस्ति वा? अस्ति चेत् वदतु महोदय.
ह्यः परह्य अस्य अस्ति आसीत् वा?
अहं तदपि वदतु महोदय. अहं चिन्तितवान् इदानीम् अपि पूर्वं तत्र परह्यः ह्यः तदपि उपयुज्य केवलं पञ्चवाक्यानि, किन्तु अस्ति चेत् वदतु महोदय, चिन्ता मास्तु.
एकनिमिषं. ओके. परह्यः अहं गृहपाठं कृतवान्. श्वः अहं कुटुम्बेन समेत बन्धुगृहं गमिष्यामि. परश्वः अहं चालन अनुज्ञापत्रस्य नवीकरणार्थं परिवहनकार्यालयं गमिष्यामि. इदानीम् अहं प्रापरश्वः मया किं करणीयम् इति विचारे चिन्तनं कुर्वन् अस्ति. इदानीम् अहं
अस्मि चिन्तनं कुर्वन् अस्मि. समीचीनं
महोदय.
धन्यवादः. सर्वाणि समीचीन, सर्वं समीचीनं महोदय. धन्यवादः. अस्तु, अन्य कोऽपि वक्तुम् इच्छति वा गृहपाठवाक्यानि?
महोदय,
महोदय,
अहं गृहपाठं न
कृतवान्
परन्तु अधुना अहं किञ्चित् वाक्यं
लिखितवान्.
पूर्वम् अहं संस्कृतं न अपठम्, इदानीं तु पठामि. पूर्वं केवलं गणितविषयम् अरोचे परन्तु इदानीं संस्कृतविषयम् अतीव रोचे.
अस्तु.
पूर्वम् अहं गृहपाठं न करोति स्म करोमि स्म अधुना किञ्चित् वाक्यानि लिखामि.
समीचीनं.
अस्तु
अस्तु. सरला भगिनी, एषः प्रथमवारम् आगतवान् अस्ति अत्र वर्गे. प्रथमवारम् अस्तु, प्रथमवारम् अस्ति. तने महोदय, वदतु महोदय.
केवलं
तावदेव आसीत् वा?
तावदेव.
अस्तु अस्तु महोदय, अस्तु. धन्यवादः. धन्यवादः महोदय. अस्तु, भानुचेतनी महोदय वदति वा इदानीम्?
आं महोदय. पूर्वं बहूनि आम्रफलानि आसम्, इदानीम्
आसम् वा
आसन्
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 आसन् क्षम्यतां महोदय, आसन्. पूर्वं बहूनि आम्रफलानि आसन्, इदानीं कानिचित् एव सन्ति. पूर्वं ब्रह्म पञ्चमुखानि आसन्, इदानीं चतुर्मुखम् एव अस्ति महोदय.
पूर्वं ब्रह्मस्य पञ्चमुखानि आसन् इति तत् सम्यक् वा? यद् भवान् वक्तुम् इच्छति तस्य मुखम् इति वा? मुखम् इति नपुंसकलिङ्गे अस्ति खलु?
महोदय
मुखानि
ब्रह्मस्य पञ्चमुखानि आसन्
इदानीं
सम्यक् वा
इदानीं
चतुर्मुखं
वदतु महोदय
चतुर्मुखं चतुर्मुखं महोदय एकवचनं
यदि चतुर्मुखम् इति वक्तुम् इच्छति चेत् पूर्वं पञ्चमुखब्रह्म आसीत् इदानीं चतुर्मुखब्रह्म अस्ति
मुखं बहुवचन
न महोदय तत्र किं भवति यदि ब्रह्म इति ब्रह्म चतुर्मुखब्रह्म अथवा पञ्चमुखब्रह्म इति वदामश्चेत् तत्र अतः तत्र चतुर्मुखब्रह्म आसीत् पञ्चमुखब्रह्म आसीत् इदानीं चतुर्मुखब्रह्म अस्ति तदपि सरलमेव अस्ति इति
तादृशं न महोदय पञ्चमुखानि आसन् इदानीं चतुर्मुखानि सन्ति
सत्यं समीचीनं अग्रे महोदय
पूर्वम् अविद्याग्रस्तः इदानीं विद्यामाय अस्ति पुरुष एकवचनं पूर्वम् अविद्याग्रस्तः आसम् इदानीं विद्यामाय अस्ति
अस्मि
अस्मि कथं महोदय
किं किं वक्तुं
विद्या माया अस्ति
विद्या माया अस्ति अस्तु अस्तु विद्या माया अस्ति अस्तु महोदय
महोदय एतत्
समीचीनं महोदय अस्तु धन्यवादः
धन्यवादः
श्वः परश्वः अस्ति अस्ति वा अस्तु वदतु महोदय वदतु
ह्यः महोदय पेरेण्टिङ्ग् इत्युक्ते किं महोदय
पेरेण्टिङ्ग्
शिबिरं
पेरेण्टिङ्ग्
शिबिरम् आसीत् तत् किम् इति अहं न जानामि
कोऽपि जानाति वा कथं वक्तव्यम् एतत् इति
शिशुपालनं
समीचीनमेव अस्ति शिशुपालनं बहु समीचीनमस्ति महोदय धन्यवादः रघुपति महोदय शिशुपालनशिबिरः शिशुपालनशिबिरः
ह्यः शिशुपालनशिबिरं
शिबिरः शिबिरः अथवा शिबिरं
शिबिर
पुल्लिङ्गपदम् पुल्लिङ्ग इति मन्ये शिबिरं सरला भगिनी किम् अस्ति जानाति वा
अहं जानामि पेरेण्ट्स् माता पितरौ इति वदति
न शिबिर शिबिरम् अथवा शिबिरः
नपुंसकलिङ्ग अस्ति महोदय
शिबिरम् अस्तु अस्तु धन्यवादः अस्तु अस्तु धन्यवादः अस्तु भानुचित्र महोदय इदानीं शिबिरमेव सम्यक् अस्तु वदतु महोदय
ह्यः शिशुपालनशिबिरम् आसीत् श्वः मङ्गलवासरः अस्ति
भवति प्रायः भवति श्वः इति
भेदः किं महोदय भेदः किं
श्वः अस्ति तदपि किन्तु यदि भविष्यत्कालम् अस्ति इति भवति इति मम मनसि अस्ति श्वः श्वः मङ्गलवासर अस्ति तदपि प्रायः
भविष्यति
श्वः भविष्यति
भविष्यति वा
मङ्गलवासर भविष्यति भवति द्वयमपि अस्ति अपि प्रायः साधु एव अस्ति महोदय तत्र भेदः
नास्ति
न भेदः अस्ति इति भेदः नास्ति इति मन्ये
किन्तु वर्तमानकालप्रयोगं साधु वा अथवा तत्र
तत्र रूपस्य नियमाः सन्ति, तत्र अद्यतन अनद्यतन भविष्यत्कालः एतत् सर्वम् अस्ति. किन्तु इदानीं एतादृशः प्रयोगः अपि अस्माभिः श्रूयते. श्वः मङ्गलवासरः अस्ति अतः अहम् एतत् करोमि इति सर्वे वदन्ति, अतः चिन्ता मास्तु
महोदय. श्रेष्ठरीत्या किं वक्तव्यम् इति मया
अहं भवति इति अपि श्रुतवान्. द्वयमपि साधु अतः.
हरि ओं महोदय, धन्यवादः.
अस्तु अस्तु, धन्यवादः महोदय. अस्तु, सर्वेषां धन्यवादः. बहु समीचीनम् आसीत् वाक्यानि. अतः अद्य वयं किं कुर्मः इत्युक्ते भूतकालस्य प्रयोगः, तदेव अस्माकं विषयः, अद्यतनविषयः. तत्र वयं केवलम् अस्ति इति क्रियापदस्य भूतकालरूपं दृष्टवन्तः गतवर्गे. तत्र नरेश महोदय, तत्र गतवर्गे यत् पठितवन्तः तत् एकवारं पठति वा? तत्र 77 पुटसङ्ख्या 77 मध्ये तत्र कोष्टकं यदस्ति, अस्ति स्तः सन्ति इति, तत्र वर्तमानकाल अपि भूतकालरूपम् एकवारं पठतु महोदय.
अस् धातोः रूपाणि वर्तमानकाले, प्रथमपुरुषः अस्ति स्तः सन्ति, मध्यमपुरुषः असि स्तः स्थ, उत्तमपुरुषः अस्मि स्वः स्मः. भूतकाले प्रथमपुरुषः आसीत् आत्माम् आसन्, मध्यमपुरुषः आसीः आस्तम् आस्त, उत्तमपुरुषः आसम् आस्व आस्म
इति अस्ति. अस्तु, तत्र एतावत् वयम् आसम् इति श्रुतवन्तः, आसीत् अपि श्रुतवन्तः. कोऽपि वाक्यं वदति वा आसीः आस्तम् आस्त इति उपयुज्य? मध्यमपुरुषस्य वाक्यानि वयं न श्रुतवन्तः इति कृत्वा सरलभगिनी वाक्यं वदति वा मध्यमपुरुषे?
त्वं पूर्वं शिक्षिका आसि, इदानीं माता अस्ति.
हा, समीचीनं भगिनि. हा, अस्तु, धन्यवादः. हा, तत्र मध्यमपुरुषः अपि भवति इति कृत्वा अस्तु. हा, इदानीम् अत्र अस्मिन् अध्याये वयं किं कुर्मः इत्युक्ते भूतकालस्य रूपद्वयं भवति. एकम् अस्ति गच्छति इति क्रियापदस्य भूतकालरूपं, प्रथमरूपम् अस्ति गतवान् इति, तादृशरूपं प्रथमतया वयं तस्य अभ्यासं कुर्मः. तदनन्तरं यत् अन्यत् रूपम् अपि पश्यामः, तत् भवति तत्र गच्छति इति, तत्र अथवा तस्य पठति इति, पठितवान् इति, तादृशरूपं भवति प्रथमरूपं. द्वितीयरूपं भवति अपठत् इति. तत्र भेदः अपि अस्ति, अग्रे तस्मिन् विषये किञ्चित् वदामः, पश्यामः. किन्तु एतत् रूपं गच्छति, गतवान्, गतवती, एतत् वयम् अभ्यासपुस्तके अपि दृष्टवन्तः, तदेव अत्रापि प्रथमतया कुर्मः. तदनन्तरम् अन्यत् रूपं यत् अचलत्, अगच्छत्, अपठत् इति अस्ति, तद् कुर्मः. अस्तु, तत्र अग्रिमपुटे पेज् 78 तत्र सन्ध्याबर्ण भगिनी पठति वा? तत्र अभ्यासः यदस्ति तद् तद् एकवारम् उक्त्वा अदौ भागे यदस्ति तद् पठति वा भगिनि.
यतोदाहरणं रिक्तस्थानानि पूरयत. एकवचनं सः सः वाक्पटुः आसीत्. सर्वाणि एकवचनानि पठामि वा अथवा
तत्र त्वं त्वम् इति त्वम् इति तत् पठतु भगिनि. अस्तु.
त्वं त्वं
तत्र मध्यमपुरुषे किं भवति? सः आसीत् त्वम् आसीः. हा इदानीं त्वं
त्वं वाक् तदेव
तदेव तदेव वाक्पटुः एव.
ओ ओ अवगच्छामि. ओके. त्वं वाक्पटुः आसीः.
हा इदानीम् अहम्
अहं वाक्पटुः आसम्
आसम्. हा तदेव वर्तमानकाले किं भवति? सः वाक्पटुः
सः अस्ति.
हा सः वाक्पटुः अस्ति. त्वं
वाक्पटुः अस्ति. त्वं वाक्पटुः असि. अहम् अस्मि.
अहं वाक्पटुः अस्मि. समीचीनं भगिनि. हा धन्यवादः. अस्तु अग्रे गीताञ्जलि भगिनि द्विवचनरूपं करोति वा तत्र?
अस्तु महोदय. त्वौ वाक्पटु आस्ताम् त्वां वाक्पटु आस्तम् आवां वाक्पटु आस्व.
हा समीचीनं भगिनि. तदेव वर्तमानकाले किं भवति?
तौ वाक्पटु सः त्वां वाक्पटु हः आवां वाक्पटु स्वः.
समीचीनं भगिनि. अस्तु धन्यवादः. तने महोदय तत्र बहुवचनरूपं वदति वा तत्र?
आं महोदय. ते वाक्पटवः वाक्पटवः आसन्. यूयं वाक्पटवः आस्त. वयं वाक्पटवः आस्म.
हा इदानीं वर्तमानकाले?
ते वाक्पटवः सन्ति. यूयं वाक्पटवः स्त. वयं वाक्पटवः स्मः.
हा समीचीनं महोदय. धन्यवादः. अस्तु अग्रे सरला भगिनी अत्र यद् अस्ति तत्र अधोभागे पठत अवगच्छत् च तत् पठति वा?
वर्तमानकाले बुद्धकाले युधिष्ठिरनगरं गच्छति. युधिष्ठिरः नगरं गतवान्. दुर्योधनः अपि नगरं गच्छति. दुर्योधनः अपि नगरं गतवान्. अत्र गच्छति वर्तमानकाले अस्ति, गतवान् भूतकाले अस्ति.
समीचीनं भगिनि. हा युधिष्ठिरः नगरं गच्छति. युधिष्ठिरः नगरं गतवान् इति भूतकालरूपं भवति. हा वयम् अभ्यासपुस्तके अपि दृष्टवन्तः खलु. सः गच्छति, सः गतवान् इति भूतकालरूपं. हा तत्र गतवान् इति पुल्लिङ्गे अस्ति. इदानीं सीता नगरं गच्छति इति अस्ति चेत् तस्य भूतकालरूपं किं भवति?
सीता नगरं गतवती
इति गतवती इति भवति. अस्तु इदानीं तत्र एतत् तत्र पुरुषः नगरं गच्छति इति पश्यामः. अस्तु तत्र सरलभगिनी भवती एव वदतु. पुरुषः नगरं गच्छति तस्य भूतकालरूपम् अस्ति
पुरुषः नगरं गतवान्
इति. इदानीं तत्र प्रथमतया एकवचने कुर्मः, किन्तु केवलम् उदाहरणार्थं भगिनि, अग्रे अग्रिमपुटे यदस्ति तस्य उदाहरणार्थम् एतदेव द्विवचने अपि बहुवचने वदतु भगिनि. पुरुषः नगरं गतवान् इदानीं.
पुरुषौ नगरं गतवन्तौ. बहुवचने भवति पुरुषाः नगरं गतवन्तः.
हा इदा इति भवति. तदेव वाक्यं, तदेव वयं कर्तुम् इच्छामः. एतद् भूतकाले एकवचने द्विवचने वा बहुवचने कर्तुम् इच्छामः, किन्तु प्रथमतया एकवचनरूपं कीदृशं भवति इति पश्यामः. तत्र गतवान् इति भवति. तत्र भवान् शब्दवत् गतवत् इति प्रातिपदिकम् अस्ति, गतवान् इति प्रथमाविभक्तिरूपम् अस्ति. तत्र गतवान् इति नामपदमेव अस्ति, तत् क्रियापदमिव अत्र भवति. क्रियां सूचयति किन्तु तद् नामपदम् अस्ति, विशेषणम् अस्ति. युधिष्ठिरः, तत्र युधिष्ठिरः नगरं गतवान्, युधिष्ठिरः विशेष्यमस्ति, नामपदमस्ति. गतवान् विशेषणम् अस्ति. विशेषणम् इत्युक्ते किं बालचेतिनी महोदय? विशेषणं
करोति तद्
विशेषणं. हा विशेष, किमपि विशेषम् अस्ति इति नामपदे किमपि विशेषं सूचयति इति विशेषणं भवति. हा सत्यं महोदय. हा अस्तु. हा उत्तमः रामः, राम राम साधारणेन उत्तमः अस्ति, उत्तमः इति गुणः अस्ति इति कृत्वा उत्तमः रामः, रामः इति विशेष्यम् इति वदामः. उत्तमः इति विशेषणं, नामपदं नौन् अथवा अपि विशेषणं भवति अड्जेक्टिव् इति. अस्तु, नामपदस्य परिवर्तनं किञ्चित् करोति इति कृत्वा. अस्तु अग्रे तत्र नरेश महोदय अग्रे पठति वा? तौ सर्वान्,
तौ सर्वान् नगरजनान् पश्यतः, तौ सर्वान् नगरजनान् दृष्टवन्तौ, तौ सर्वैः मिलतः, तौ सर्वैः मिलितवन्तौ
इति. हा अस्तु. वदतु महोदय.
युधिष्ठिरः एकमपि दुर्जनं न प्राप्नोति, युधिष्ठिरः एकमपि दुर्जनं न प्राप्तवान्, दुर्योधनः एकमपि सज्जनं न प्राप्नोति, दुर्योधनः एकमपि सज्जनं न प्राप्तवान्, यथा दृष्टिः अस्ति तथा दर्शनम्, यथा दृष्टिः आसीत् तथा दर्शनम्
इति अस्ति. हा अस्तु, धन्यवादः महोदय. तत्र गच्छति इति किम् अभवत्? गतवान्. हा पश्यति इति
दृष्टवान्.
पश्यतः इति वचनं, पश्यतः इति तृतीयवाक्ये पश्यतः इति अस्ति. तत्र वचनं किं पश्यतः? द्विवचनम् अस्ति. तौ इति अस्ति, अतः पश्यतः इति द्विवचने अस्ति. पश्यतः भवति दृष्टवन्तौ इति. मिलतः, तौ मिलतः, तदपि द्विवचने अस्ति, मिलितवन्तौ इति भवति. अस्तु, तत्र रघुपति महोदय, तत्र प्रथमवाक्यं यदस्ति युधिष्ठिरः नगरं गच्छति, तदेव तत्र अग्रिमपुटे दृष्ट्वा पठितवान्, पठितवन्तौ, पठितवन्तः इति अस्ति. तद् दृष्ट्वा युधिष्ठिरः, वयं जानीमः युधिष्ठिरः एकः एव अस्ति इति, किन्तु व्याकरणार्थं युधिष्ठिरौ युधिष्ठिराः इति वदामः. तत्र द्विवचन बहुवचनरूपं भूतकाले वदतु महोदय. तत्र
युधिष्ठिर क्रियापद किं महोदय?
गच्छति एव. युधिष्ठिरः नगरं गतवान् एकवचने अस्ति, तस्य द्विवचनं बहुवचनं.
युधिष्ठिरः नगरं गच्छति, युधिष्ठिरः नगरं गतवान्, युधिष्ठिरौ नगरं गतवन्तौ युधिष्ठिराः नगरं गतवन्तः
इति अस्ति. समीचीनं महोदय. हा इदानीम् अग्रिमम्
अग्रिमं दुर्योधनः अपि नगरं गच्छति. दुर्योधनः अपि नगरं गतवान्. दुर्योधनौ अपि नगरं गतवन्तौ. दुर्योधनाः अपि नगरं गतवन्तः
इति भवति. समीचीनं. हा धन्यवादः महोदय. अस्तु भानुचैतन्य महोदय, तत्र अग्रिमं तौ सर्वान् नगरजनान् पश्यतः.
तौ सर्वान् नगरजनान् पश्यतः. तौ सर्वान् नगरजनान् दृष्टवन्तौ. सः सर्वान्
नगरजनान्
सः सर्वान् नगरजनान् दृष्टवन्तः. दृष्टवान् महोदय. सः सर्वान् नगरजनान् दृष्टवान्. तौ सर्वान् नगरजनान् दृष्टवन्तौ. ते सर्वान् नगरजनान् दृष्टवन्तः
इति भवति. समीचीनं. हा अग्रिमम्.
तौ सर्वैः मिलतः. तौ सर्वैः मिलितवन्तौ. सः सर्वैः मिलितवान्. तौ सर्वैः मिलितवन्तौ. ते सर्वैः मिलितवन्तः
इति अस्ति. समीचीनं महोदय. अस्तु धन्यवादः. इदानीं गीताञ्जलि भगिनी.
युधिष्ठिरः एकमपि भोजनं न प्राप्तवान्. युधिष्ठिरः एकमपि भोजनं न प्राप्तवान्. युधिष्ठिरः
युधिष्ठिरौ युधिष्ठिरौ इदानीं द्विवचने.
युधिष्ठिरौ एकमपि दुर्जनं न प्राप्तवन्तौ. युधिष्ठिराः एकमपि दुर्जनं न प्राप्तवन्तः
इति अस्ति. अग्रिमं.
दुर्योधनः एकमपि सज्जनं न प्राप्नोति. दुर्योधनः एकमपि सज्जनं न प्राप्तवान्. दुर्योधनौ एकमपि सज्जनं न प्राप्तवन्तौ. दुर्योधनाः एकमपि सज्जनं न प्राप्तवन्तः
इति अस्ति. समीचीनं भगिनि. अस्तु हा इदानीं सन्ध्या भगिनि, अग्रिमं द्वितीयं सैरन्ध्री इति अस्ति, तद् भगिनि.
सैरन्ध्री सेविका अस्ति. सैरन्ध्री सेविका आसीत्.
हा इदानीं तस्य सैरन्ध्री सेविका आसीत्. इदानीं तस्य द्विवचनरूपं बहुवचनरूपं करोति वा? सैरन्ध्री इति नदी शब्दवत् अस्ति. सैरन्ध्री पदस्य द्विवचनरूपं किम्? नदी इति पदस्य द्विवचन बहुवचनरूपं किमस्ति? नदी. हा अतः सैरन्ध्री आसीत् इति किं भवति? आस्ताम्. आस्ताम् इति भवति. अपि तत्र किञ्चित् अस्तु. हा तत्र अस्तु. तत्र किञ्चित् कार्यः अस्ति इति एकनिमिषः. प्रथमतया एतत् कुर्मः. सैरन्ध्री इति द्विवचने किम् अस्ति?
सैरन्ध्र्यौ
अस्ति. अपि आसीत् इति तस्य द्विवचनरूपं किम् अस्ति?
आस्ताम्.
आस्ताम् इति अस्ति. अपि तत्र सेविका इति अस्ति, तदपि तस्यापि द्विवचनरूपं भवति. She is a servant इति भवति खलु. अतः सेविका अपि तस्य परिवर्तनमपि भवति. तदपि द्विवचने भवति. सेविका लते लता. हा इदानीं सेविका किं भवति द्विवचने?
सेविके.
हा इदानीं सर्वं मिलित्वा वदामः. हा सैरन्ध्र्यौ
सेविके
आस्ताम्. हा समीचीनं भगिनी. हा द्विवचने एतदस्ति. इदानीं बहुवचनं क करोति वा? नद्यः एव शैरन्द्रियः
शैरन्द्रियः सेविकाः
आसन् समीचीनं भगिनि. अस्तु, धन्यवादः. तत्र पूर्वं केवलम् एकपदस्य अथवा पदद्वयस्य परिवर्तनं, किन्तु अत्र सर्वपदस्य परिवर्तनम् आवश्यकम् आसीत्. अस्तु, हा, धन्यवादः. अस्तु, अग्रे कः न उक्तवान् एतावत्? अन्य कोऽपि अस्ति वा यत् यः वक्तुं?
महोदय,
हरि महोदय, नमस्कारः. हा, नमस्कारः महोदय, न उक्तवान्. हा, नमस्ते. अस्तु महोदय, भवान् अग्रिमं करोति वा? जानाति वा वयं कुत्र स्मः इति?
आं महोदय, पुटसङ्ख्या 78.
हा हा, सत्यं. हा, अत्र शैरन्द्रि इति कृतं, तस्य अनन्तरं तत्र हा सा राज्ञीं सेवते इति. हा,
सा राज्ञीं सेवते. सा राज्ञीं सेवितवती. सा राज्ञीं सेवितवती. सा ते ताः. ते राज्ञीं
कर्मपदं भवति, परिवर्तनं न भवति.
आम्, ते 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 राज्ञीं सा सेवि.
हा, तत्र सेवितवती इति स्त्रीलिङ्गरूपम् अस्ति महोदय. अस्तु, इदानीं किञ्चित् वदामः. तत्र नदी इति पदस्य रूपं किम् अस्ति द्विवचने बहुवचने?
नदी, नद्यौ, नद्या.
नद्यः,
नद्यः, नदी, नद्यौ, नद्यः.
हा, इदानीं भवती किं भवती एकवचने अस्ति, द्विवचन बहुवचनरूपं किम् अस्ति?
भवत्यः
इति भवति. हा, भवती, भवत्यौ, भवत्यः, तादृश एव एतदपि अस्ति. सेवितवती, भवतीवत् अस्ति. नदीवत् सेवितवती.
सेवितवतौ,
नद्यौ, नदी, नद्यौ,
सेवितवत्यौ, सेवितवत्यः.
हा, सेवितवत्यः, नदी, नद्यौ, नद्यः, भवती, भवत्यौ, भवत्यः, सेवितवती, सेवितवत्यौ, सेवितवत्यः. हा, समीचीनं महोदय. हा, इदानीं तत् द्विवचने बहुवचने वदतु. सा राज्ञीं सेवितवती.
ते राज्ञीं सेवितवत्यौ.
राज्ञीं सेवित,
राज्ञीं सेवितवत्यौ. ताः राज्ञीं सेवितवत्यः
इति भवति. समीचीनं महोदय, समीचीनं. हा, अस्तु, अग्रे सरला भगिनी वदति वा अग्रे?
आं महोदय. सा केशप्रसाधनं करोति. स्त्रीलिङ्ग एकवचनमस्ति, प्रथमपुरुष. सा केशप्रसाधनं कृतवती. वर्तमानकाले द्विवचनं भवति. ते केशप्रसाधनं कुरुतः. तस्य भूतकालं भवति. ते केशप्रसाधनं कृतवत्यौ. बहुवचने भवति. ताः केशप्रसाधनं कुर्वन्ति. ताः केशप्रसाधनं कृतवत्य.
समीचीनं भगिनि, समीचीनं भगिनि, समीचीनं भगिनि, धन्यवादः.
మీరు మాట్లాడుతున్న వ్యక్తి మీ కాల్ ను హోల్డ్ లో ఉంచారు. దయచేసి లైన్ లో ఉండండి.
अस्तु, अग्रे नरेश महोदय,
आम् महोदय सा सा प्रतिफलं न इच्छति काले सा प्रतिफलं न इष्टवती द्विवचनं ते प्रतिफलं न इष्टवत्यौ बहुवचनं ताः प्रतिफलं न इष्टवत्यः
इष्टवत्य समीचीनं महोदय धन्यवादः तने महोदय अग्रे
आं महोदय सा नम्रतया तिष्ठति सा नम्रतया स्थितवती वर्तमानकाले द्विवचनरूपमस्ति ते नम्रतया तिष्ठतः भूतकाले रूपं ते नम्रतया स्थितवत्यौ
वर्तमान तत्र अस्तु प्रथमतया एतत् कुर्मः महोदय तत्र सा इति तस्य रूपं सा ते अपि तत्र तिष्ठति इति तत् किं भवति तिष्ठति तिष्ठतः
तिष्ठन्ति
तिष्ठन्ति इति अस्ति इदानीं तस्य भूतकालरूपं किम् अस्ति स्थितवती
स्थितवत्यौ स्थितवत्यः
इति अस्ति हा इति एतत् तत्तु तत् समीचीनमस्ति महोदय किन्तु एतत् प्रायशः यद् मध्ये अस्ति तत् प्रायशः वयं न कृतवन्तः एतत् तृतीया विभक्ति इति वदामः नम्रतया इति नम्रतया तत् तृतीया विभक्ति अस्ति तस्य अपि परिवर्तनं भवति महोदय तद् एतावत् वयं न कृतवन्तः अतः भवान् किं करोतु केवलं सा तिष्ठति इति तत् स्वीकृत्य वदतु महोदय
आं महोदय सा तिष्ठति सा स्थितवती वर्तमानकाले द्विवचनरूपं ते तिष्ठतः भूतकाले रूपं ते स्थितवत्यौ बहुवचनरूपं वर्तमानकाले ताः तिष्ठन्ति भूतकाले रूपं ताः स्थितवत्यः
इति समीचीनं महोदय तत्र अग्रे वयम् एतद् तृतीयविभक्तिरूपं कुर्मः नम्रतया इति एकवचने अस्ति तत् तस्य अपि द्विवचनरूपं बहुवचनरूपं तत्र वक्तव्यमस्ति तावदेव अस्तु अस्तु
एकः प्रश्नः अस्ति युधिष्ठिरः नगरं गतवान् इति वाक्ये क्रियापदं नास्ति
हा सत्यं महोदय सत्यं हा क्रियापदं तत्र न लिखितम् अस्ति कोऽपि वदति वा क्रियापदं किम् इति तत्र वाक्ये
अस्ति
अस्ति इति क्रियापदम्
आसीत्
युधिष्ठिरः नगरं गतवान् अस्ति इति अस्ति इति क्रियापदम् अस्ति महोदय
अस्तु महोदय
हा तत्र किम्
आसीत् सम्यक् न भवति वा पुनः
हा तत्र किं भवति हा भूतकः इत्युक्ते महोदय तत्र अर्थभेदः भवति कीदृशम् इति वदामः तत्र रमेशः उत्तमः आसीत् इति वदामश्चेत् रमेशः उत्तमः अस्ति रमेशः उत्तमः आसीत् भेदः अस्ति वा तत्र अस्ति वा
इदानीं नास्ति इति
हा तत् तत् प्रायशः भवति खलु अथवा इदानीं रमेशः इदानीम् उत्तमः अस्ति अतः भेदः अस्ति तत्र आसीत् अपि अस्ति अत्र किं भवति वयं किं वक्तुम् इच्छामः सः नगरं गतवान् अस्ति इति तादृ तदेव समीचीनम् इति हा इति तत्र तने महोदय तत्र किं भवति गतवान् इति विशेषणम् इति वदामः नामपदम् अस्ति तदपि नौन् अस्ति
अस्तु महोदय
अतः एव तत्र भेदः भवति युधिष्ठिरः गतवान् किन्तु सीता गतवती क्रियापदमस्ति चेत् सः गच्छति सा गच्छति भेदः नास्ति क्रियापदं कर्तृपदस्य लिङ्गं किम् इति न पश्यति सः गच्छति अहं सः गच्छति सा गच्छति तत्र लिङ्गभेदः नास्ति किन्तु अत्र युधिष्ठिरः गतवान् सीता गतवती लिङ्गभेदः अस्ति अतः एतत् वस्तुतः गतवान् इति क्रियापदं नास्ति क्रियापदम् इव अस्ति లైక్ క్రియాపదం. అగ్రే పశ్యామః క్రియాపదం భూతకాల రూపం కిం ఆగచ్చత్ ఇది యదస్తి తదేవ క్రియాపదం అస్తి.
అస్తు మహోదయ.
అస్తు న అస్తు అగ్రే భానుచేతని మహోదయ పఠతి వా అగ్రే. భానుచేత క్షమ్యతాం. భానుచేతని మహోదయ వదతు.
महोदय वो तत् म्यूट माध्यमे अस्ति.
आमामामामाम् क्षम्यतां. तत्र आन्सरिङ्ग् किमपि तत्र आसीत् अतः म्यूट् कृतवान्.
आम् आम्
अत्र त्वं
प्रश्नः अपि अस्ति. पश्यन् तादृशः पश्यन् इति पदमपि क्रियापदं नास्ति महोदय.
पश्यन् तत् पश्यन् तत् क्रियापदं
क्रियाविशेषण
तादृश अस्ति. क्रियापदं तत्र क्रियापदम् इव अपि अस्ति. तत्र वाक्यस्य निर्माणे तत् क्रियापदम् इति चिन्तित्वा रचयामः, किन्तु तद् वस्तुतः क्रियापदं नास्ति महोदय. तत्र क्रियां सूचयति किन्तु क्रियापदं वस्तुतः नास्ति.
तत्रापि वचनभेदम् अस्ति वा?
तत्र
वचन नास्ति, विभक्ति अस्ति. तत्र क्रियाविशेषण अस्ति.
अग्रे पश्यामः महोदय. भानुचित्र महोदय अग्रे पश्यामः. शत्रान्तरूपं कुर्मः, गीतासोपने एव कुर्मः. इदानीं
किं
पठितं तत्र तृतीयं? त्वं देशभक्तिगीतं गायसि.
देशभक्तिगीतं गायसि. त्वं देशभक्तिगीतं गीतवती.
इदानीं तदेव
युवां देशभक्तिगीतं गीतवत्यौ. यूयं देशभक्तिगीतं गीतवत्यः
इति भवति. समीचीनं महोदय. अस्तु अग्रे गीताञ्जलि भगिनी.
युवां सर्वदा सत्यम् उक्तवन्तौ. त्वं सर्वदा सत्यम् उक्तवान्. सर्वदा
सत्यम् उक्तवन्तः इति अस्ति. समीचीनं भगिनि, धन्यवादः. सन्ध्या भगिनी, तदेव वाक्यं यत् गीताञ्जलि भगिनी पठितवती तत्र यूयं भक्तवन्तः इति अस्ति. तत्र लिङ्गं किम् अस्ति भगिनि? सन्ध्या भगिनि
पुनः
उक्तवन्तौ इति उक्त क्षम्यतां यत् गीताञ्जलि भगिनी उक्तवती तत्र उक्तवन्तौ इति अस्ति. तत्र लिङ्गं किम् अस्ति? उक्तवन्तौ. उक्तवान्, उक्तवन्तौ, उक्तवन्तः इति अस्ति.
ओ तर्हि
पुल्लिङ्गं.
पुल्लिङ्गम्
अस्ति. पुल्लिङ्गरूपम् अस्ति. तत्र यदि तत्र युवां सर्वदा सत्यम् इदानीं स्त्रीलिङ्गरूपं किं भवति? तत्र त्वं सर्वदा सत्यम् उक्तवान् इति तद् पुल्लिङ्गे अस्ति. स्त्रीलिङ्गरूपं किं भवति? त्वं
सर्वदा सत्यम् उक्तवती.
हा इदानीं द्विवचने
उक्तवती. उक्तवत्
नदी नद्यौ. नदी शब्दः अस्ति. नदी नद्यौ नद्यः.
उक्तवत्यौ उक्तवत्यः.
हा समीचीनम्. इदानीं तदेव तद् अन्तिमपदं तद् भवति. प्रथमपदं भवति त्वं युवां यूयम्. इदानीं
त्वं सर्वदा सत्यम् उक्तवती, युवां सर्वदा सत्यम् उक्तवत्यौ, यूयं सर्वदा सर्वदा सत्यम् उक्तवत्यः.
हा इति भवति समीचीनं भगिनि, धन्यवादः. तत्र लिङ्गभेदः अस्ति, पुल्लिङ्गरूपं दत्तमस्ति, किन्तु स्त्रीलिङ्गरूपमपि वक्तुं शक्नुमः, तदपि भवति. समीचीनं भगिनि, धन्यवादः. अस्तु, अग्रे सरला भगिनी वदति वा अग्रे.
यूयं भजद्वे, अत्र भजद्वे आत्मनेपदी अस्ति द्वौवचने. यूयं भक्तवन्तः, तस्य
तद् केवलं यूयं भक्तवन्तः एकवचन द्विवचनरूपं वदतु.
भूतकाले
केवलं
त्वं भक्तवान्, युवां भक्तवन्तौ.
यूयं भक्तवन्तः. इदानीं स्त्रीलिङ्गे, इदानीं स्त्रीलिङ्गे,
स्त्रीलिङ्गे भवति त्वं भक्तवती, युवां भक्तवत्यौ, यूयं भक्तवत्यः
इति भवति. समीचीनं भगिनि, धन्यवादः. हरिमहोदय अग्रे.
अहं भुङ्गे, अहं भुङ्क्तवान्,
भुक्तवान्, अहं भुक्तवान्,
आवां भुक् आवां भुक्तवन्तौ, वयं भुक्तवन्तः.
हा, तत्र स्त्रीलिङ्गे किं भवति?
अहं भुक्तवती, भुक्तवती, आवां भुक्तवन्त्यौ,
भुक्तवत्यौ, भुक्तवत्यौ,
वयं भुक्तवत्यः
इति भवति. इदानीं तत्र कस्य किम् अपेक्षितमस्ति तत्र? एतद् भूतकालरूपं कर्तुं किम् अपेक्षितम् इत्युक्ते पठितवान् इति अस्ति, तस्य द्विवचनरूपं बहुवचनरूपं. तत्र भवान्, भवन्तौ, भवन्तः इति अस्ति, अथवा भगवान्, भगवान्, भगवन्तौ, भगवन्तः इति अस्ति, पठितवान्, पठितवन्तौ, पठितवन्तः इति पुल्लिङ्गे अस्ति, स्त्रीलिङ्गे पठितवती, नदी शब्दवत् पठितवती, पठितवत्यौ, पठितवत्यः, नदी, नद्यौ, नद्यः, दीर्घकार स्त्रीलिङ्गपदम् अस्ति. पठितवती, लिखितवती, लब्धवती, नीतवती, क्रीडितवती, धृतवती, कृतवती, इष्टवती, तादृशरूपं भवति. तत्र नदी शब्दवत् नदी, नद्यौ, नद्यः इति अस्ति. अस्तु, इदानीम् अग्रिमपुटे यदस्ति तस्य अभ्यासः तदपि कुर्मः. अभ्यासं भवति, एतत् गतवान्, एतत् वयम् अभ्यासपुस्तके कृतवन्तः, अतः अत्र किञ्चिदेव नूतनम् अस्ति, किन्तु अग्रे प्रायशः अग्रिमवर्गे वयं वस्तुत भूतकालक्रियापदं पश्यामः. अस्तु, अग्रे तत्र सन्ध्या भगिनी अग्रिमं तत्र पठति वा अग्रिमपुटे?
यतोदाहरणं
तत्र
यथोदाहरणं रिक्तस्थानानि पूरयत, लट्लकाररूपं
तत्र पठति इति
पठति, एकवचनं पठितवान्, द्विवचनं पठितवन्तौ, बहुवचनं पठितवन्तः.
इदानीम् इच्छति किं भवति?
इच्छति, इष्टवान्, इष्टवन्तौ, इष्टवन्तः
इति भवति. इदानीं तत्र स्त्रीलिङ्गरूपं किं भवति? पठितवान्, पठितवन्तौ, पठितवन्तः किं भवति स्त्रीलिङ्गे?
पठितवती, पठितवत्यौ, पठितवत्यः.
हा, इष्टवान्?
इष्टवती, इष्टवत्यौ, इष्टवत्यः
इति भवति. समीचीनं भगिनी, धन्यवादः. हा, तत्र एतद् तत्र उपशीर्षकः तत्र अस्ति, तव तु प्रत्ययान्तं रूपं पुल्लिङ्गे इति. हा, एतत् पुल्लिङ्गरूपम् अस्ति. अग्रिमपुटे स्त्रीलिङ्गरूपं दत्तमस्ति. हा, अत्र तव तु प्रत्ययान्तं रूपम्, अत्र पट् इति धातुः अस्ति, तदेव मूलरूपम् अस्ति, क्रियापदस्य मूलरूपम् अस्ति धातु इति वदामः, नामपदस्य मूलरूपं प्रातिपदिकम् इति वदामः. तत्र पट् इति धातु स्वीकृत्य वयं किं कुर्मः? क्तवतु. क्तवतु इत्युक्ते तत्र तवत् इति प्रत्ययं तस्य आयोजनं कुर्मः. पट् इति किं भवति? पठितवत् इति भवति. तदनन्तरं तद् स्वीकृत्य पुल्लिङ्गरूपं पठितवत् इति प्रातिपदिकं भवति, पठितवान् इति पुल्लिङ्गे भवति. पठितवान्, पठितवन्तौ, पठितवन्तः. भगवत् अथवा भवत् शब्दस्य प्रथमाविभक्तिरूपं भवान्. एतद् वयं सर्वे जानीमः खलु, भवान् कथमस्ति इति, भवन्तः कथं सन्ति इति यत् उपयोगं कुर्मः तदेव पठितवान्, पठितवन्तौ, पठितवन्तः, तदेव अस्ति. तत्र क्तवतु इति पठितवत् किं कस्य संयोजनं भवति? क्तवतु इति प्रत्ययस्य संयोजनं भवति. तत्र क्तवतु, तत्र केवलं तवत् इति पठितवत् तदेव तिष्ठति तत्र. अतः तत्र अग्रे पाणिनिव्याकरणं किमपि यदि कोऽपि तस्य वर्गः वर्गं गच्छन्ति चेत् तत्र किं संज्ञा भवति एतत् क्तवतु? क क पदं किमर्थं तत्र न भवति इति इत्संज्ञा इति सर्वे प्रायशः शृण्वन्ति तत्र. किन्तु अत्र कार्यं किमस्ति? पट् पठति इति अस्ति क्रियापदं, तत्र ति इति त्यजतु, केवलं पट् इति अस्ति. तदनन्तरं पठितवान् इति भवति, पठितवत् इति तत्र रूपं भवति. अस्तु, तत्र तत्र बहु किम् अस्ति, किन्तु सरलतया अत्र कुर्मः. अग्रे व्याकरणवर्गं गच्छतु, तत्र किमर्थम् एतत् बहु गम्भीर्य तत्र बहु महत्त्वपूर्णविषयाः सन्ति तत्र, किन्तु अत्र केवलं सरलरूपया अत्र कुर्मः. अस्तु, अग्रे नरेश महोदय अग्रिमं करोति इति.
महोदय, करोति, कृतवान्, कृतवन्तौ, कृतवन्तः.
हा, इदानीम् अग्रिमं गायाति.
गायति, गीतवान्, गीतवन्तौ, गीतवन्तः.
हा, इदानीं तदेव करोति इति स्त्रीलिङ्गे कृत.
कृतवती, कृतवत्यौ, कृतवत्यः. गायति, गीतवती, गीतवत्यौ, गीतवत्यः
इति अस्ति. समीचीनं महोदय, धन्यवादः. अग्रे तने महोदय.
आं महोदय, स्त्रीलिङ्गे स्त्रीलिङ्गे पुल्लिङ्ग द्वयोः रूपे वदानि.
हा, सत्यं महोदय, प्रयत्नं कुर्मः. स्त्रीलिङ्गरूपम् अग्रिमपुटे एव दत्तमस्ति, किन्तु प्रयत्नं कुर्मः. यदि न न जानाति चिन्ता मास्तु. अस्तु, हा.
धरति, धृतवान्, धृतवन्तौ, धृतवन्तः. एतस्य स्त्रीलिङ्गरूपं धृतवती, धृतवत्यौ, धृतवत्यः. भजति, पुल्लिङ्गरूपं भक्तवान्, भक्तवन्तौ, भक्तवन्तः. एतस्य स्त्रीलिङ्गरूपं भक्तवती, भक्तवत्यौ, भक्तवत्यः
इति अस्ति. समीचीनं महोदय, धन्यवादः. हा, अस्तु, अग्रे भानुचैतन्य महोदय वदति वा अग्रे?
आं महोदय, भक्तवान् इति अहं किम् इति
हा भजति इति भक्तवन्तः हा इदानीं क्रीडति हा
क्रीडितवान् क्रीडितवन्तौ क्रीडितवन्तः
अस्तु प्रायशः सः पुनः आगच्छति. अस्तु हरि महोदय, तद् क्रीडितवान् इति पठति वा?
आम् महोदय, क्रीडितवान् क्रीडितवन्तौ क्रीडितवन्तः क्रीडितवती क्रीडितवत्यौ क्रीडितवत्यः.
हा अस्ति, इदानीं प्रायशः दूरवाण्यः भग्नः किमपि
सम्पर्कं भग्नः महोदय.
अस्तु अस्तु महोदय,
अग्रिमपदं
तत् तत् करोतु. हरि महोदय अग्रिमं कृत्वा तदनन्तरं भानुचैतन्य महोदय करोतु. नयति इति तदपि वदतु हरि महोदय.
नयति नीतवान् नीतवन्तौ नीतवन्तः नीतवती नीतवत्यौ नीतवत्यः.
हा समीचीनं महोदय, समीचीनं, धन्यवादः. भानुचैतन्य महोदय इदानीं
गर्जति गर्जितवान् गर्जितवन्तौ गर्जितवन्तः गर्जितवती स्त्रीलिङ्गं गर्जितवती गर्जितवत्यौ गर्जितवत्यः. भ्रमति भ्रमितवान् भ्रमितवन्तौ भ्रमितवन्तः स्त्रीलिङ्गं भ्रमितवती भ्रमितवत्यौ भ्रमितवत्यः
इति अस्ति. समीचीनं महोदय. अस्तु अग्रे गीताञ्जलि भगिनी.
तपति महोदय
अश्रुणोति
शृणोति कृतवान् कृतवन्तौ कृतवन्तः कृतवती कृतवत्यौ कृतवत्यः
इति. समीचीनं. हा अग्रे तपति
तपति तप्तवान् तप्तवन्तौ तप्तवन्तः तप्तवती तप्तवत्यौ तप्तवत्यः.
हा समीचीनं भगिनि. अस्तु अग्रे हा सन्ध्या भगिनी अग्रे. सन्ध्या भगिनी
ओ क्षम्यतां म्यूट् आसीत्.
अस्तु अस्तु.
बोधयति वा?
हा सत्यं
बोधयति. आम् बोधितवान् वन्तौ बोधितवन्तः बोधितवती बोधितवत्यौ बोधितवत्यः
वत्यः. समीचीनं भगिनि. हा अग्रे
लिखति लिखितवान् लिखितवन्तौ लिखितवन्तः लिखितवती लिखितवत्यौ लिखितवत्यः
इति अस्ति. समीचीनं भगिनि, धन्यवादः. अग्रे नरेश महोदय.
हसति हसितवान् हसितवन्तौ हसितवन्तः स्त्रीलिङ्ग हसितवती हसितवत्यौ हसितवत्यः.
समीचीनं.
नमति नमति नतवान् नतवन्तौ नतवन्तः स्त्रीलिङ्ग नतवती नतवत्यौ नतवत्यः
इति अस्ति. समीचीनं महोदय. अस्तु अग्रे कः? हा गीताञ्जलि भगिनि.
ददाति नमति नमति महोदय.
न न ददाति एव ददाति एव भगिनि.
ददाति एव ददाति दत्तवान् दत्तवन्तौ दत्तवन्तः दत्तवती दत्तवत्यौ दत्त वत्यः पृच्छति पृष्टवान् पृष्टवन्तौ पृष्टवन्तः पृष्टवती पृष्टवत्यौ पृष्टवत्यः
इति अस्ति. समीचीनं भगिनि. हा अस्तु, अग्रे अत्तने महोदय.
आं महोदय, ब्रूते एतस्य पुल्लिङ्गरूपम् उक्तवती उक्तवान् उक्तवन्तौ उक्तवन्तः स्त्रीलिङ्गरूपम् उक्तवती उक्तवत्यौ उक्तवत्यः.
हा समीचीनं. हा अग्रे.
ईक्षते एतस्य पुल्लिङ्गरूपम् ईक्षितवान् ईक्षितवन्तौ ईक्षितवन्तः. एतस्य स्त्रीलिङ्गरूपम् ईक्षितवती ईक्षितवत्यौ ईक्षितवत्यः.
समीचीनं महोदय, धन्यवादः. अग्रे हरि महोदय, अग्रे.
हा महोदय, लभते लब्धवान् लब्धवन्तौ लब्धवन्तः स्त्रीलिङ्गरूपाणि लब्धवती लब्धवत्यौ लब्धवत्यौ लब्धवत्यः.
अग्रे.
आस्ते पुल्लिङ्गरूपाणि आसितवान् आसितवन्तौ आसितवन्तः स्त्रीलिङ्गरूपाणि आसितवती आसितवत्यौ आसितवत्यः.
हा समीचीनं महोदय. हा समीचीनम्. अस्तु, अग्रे भानुचेतनी महोदय.
महोदय, एकः प्रश्नः अस्ति. अत्र आस्ते धातोः रूपम् आसितवान् भवति, अस् धातोः रूपम् असितवान् इति भवति वा?
न न न न, हा तत्र अस् धातोः रूपं किमपि, तत्र किञ्चित् कार्यम् अस्ति महोदय, वदनीयम् अस्ति, किन्तु हा तत्र किं भवति, क्रियापदस्य रूपं कीदृशं भवति इति दृष्ट्वा एतद् रूपं कीदृशं भवति इति अस्ति. तत्र पश्यतु, गच्छति भवति गतवान्, किन्तु पठति किं भवति, पठितवान् इति भवति. तत्र इकारः भवति मध्ये, खलु?
हा,
तत्र गच्छति गतवान्, किन्तु पठति पठितवान् इति भवति. तत्र तदनन्तरं अन्यत् किम् अस्ति, तत्र पश्यतु, नमति इति तत्र नतवान् इति भवति, नयति इति नीतवान् इति भवति, धरति इति धृतवान् इति भवति. अतः तत्र कथं वयं ज्ञातुं शक्नुमः किं सम्यक् रूपम्, एतद् रूपं कथं निर्मातुं शक्नुमः इत्युक्ते, तत्र क्रियापदस्य अथवा धातोः विभागः भवति, दशगणाः इति सन्ति, ग्रूप्स् इति. हा तद् दृष्ट्वा तदेकमस्ति. तदनन्तरं तत्र धातोः अन्तिम अक्षरः वर्णः किम् अस्ति तद् द्रष्टव्यमस्ति. तत् स्वरः अस्ति चेत् एकः कार्यः भवति, नो चेत् अन्तिमवर्णः स्वरः नास्ति किन्तु व्यञ्जनम् अस्ति चेत् तस्य पूर्वं किम् अस्ति इति द्रष्टव्यं भवति. तद् स्वरं कीदृशम्, अकारः वा इकारः वा उकारः वा इति तत् सर्वं दृष्ट्वा एतद् रूपं भवति महोदय. अतः अत्र वयं केवलं रूपं किम् इति, एतत् प्रथमस्तरवर्गः अस्ति खलु, प्रथमवारम् एतत् सर्वं पश्यामः इति कृत्वा रूपं किम् इति तावदेव वदामः. किन्तु कथं रूपं किं रूपं भवति इति तस्य ज्ञानं व्याकरणस्य वर्गे भवति. अग्रे द्रष्टुं शक्नुमः.
अस्तु महोदय, मम प्रश्नः केवलं अस्ति अस् धातोः रूपम् असीतवान् इति
तद् नास्ति 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 भूतवान् भूतवान् इति अस् हा भवति इति भूतवान् इति एव अहं तत्र तत्रापि अस्ति अस् अपि भू धातोः तस्य क्लेशः भवति कस्मिन् प्रसङ्गे वयम् अस् इति प्रयोजनं कुर्मः किन्तु अन्यस्मिन् प्रसङ्गे वयं भू इति तस्य प्रयोजनं कुर्मः
अस्तु
एतद् भवति हा सत्यं
महोदय क्षमताम् आस्ते इत्युक्ते किम् अहं न श्रुतवान्
सीटर्ड् रेस्टेड् इति मन्ये महोदय तत् अस्ति इति नास्ति किन्तु वयम् एतत् कृतवन्तः आस्ते एतद् आत्मनेपदी धातु अस्ति आस्ते रेस्टेड् सीटेड् इति रेस्टेड् अथवा सीटेड् इति चिन्तयामि महोदय एकं वाक्यं स्मरामि तत्र गृहिणी कुत्रापि किन्तु रेस्टेड् अथवा सीटेड् इति अर्थः भवति इति मनसि अस्ति महोदय आस्ते इति
आत्मनेपदीरूपस्य भूतकाल रूपं किमपि तत्र
भेदः नास्ति
परिवर्तनं नास्ति
भेदः नास्ति आसीतवान् इति सत्यम् अस्तु इदानीं अग्रे यद् अग्रिमपुटे यदस्ति तत्र तु कार्यं सुलभः भवति किमर्थं चेत् वयं स्त्रीलिङ्गरूपं कृतवन्तः खलु अस्तु एतत् बहु सरलं भवति इति मन्ये अस्तु अस्ति हरि महोदय तत्र अग्रिमपुटे यदस्ति तद् पठति वा
आम् महोदय पुटसङ्ख्या 81 वा
80
यतोदाहरणं रिक्तस्थानानि पूरयत कृत् वस्तु
क्तवतु प्रत्ययान्तं रूपं स्त्रीलिङ्गे
आम् क्तवतु प्रत्ययान्तं रूपं स्त्रीलिङ्गे लट्लकाररूपं पिबति एकवचनं पीतवती द्विवचनं पीतवत्यौ बहुवचनं पीतवत्यः करोति कृतवती कृतवत्यौ कृतवत्यः
इति अस्ति इदानीं अत्र एतत् कुर्मः अत्र स्त्रीलिङ्गरूपं दत्तमस्ति पुल्लिङ्गरूपं वदामः तत्र किं भवति
पीतवान् पीतवन्तौ पीतवन्तः कृतवान् कृतवन्तौ कृतवन्तः
इति अस्ति समीचीनं महोदय अस्तु अग्रे सन्ध्या भगिनी
करोति
तद् कृतं वदति इति
उदितवती वा उक्तवती नास्ति वा
न तत्र प्रश्नः समीचीनं भगिनि तत्र वच् धातु अस्ति अपि वद् धातु अस्ति उक्तवती भवति वच् धातोः एतत् वदति इति अस्ति उक्तवती अस्ति तत्र धातुद्वयमस्ति भगिनि वच् धातुः वद् धातुः समानं तत्र भवती प्रायशः श्रुतवती ऊचुः इति देवाः ऊचुः इति अथवा उच्यतां हा तद् तदस्ति हा तदस्ति वच् धातुः
उदितवती उदितवत्यौ उदितवत्यः
इदानीं पश्यति
पश्यति दृष्टवती दृष्टवत्यौ दृष्टवत्यः
हा इदानीं पुल्लिङ्गे उदित
उक्तवान् उदित उदितवान् उदितवन्तौ उदितवन्तः दृष्टवान् दृष्टवन्तौ दृष्टवन्तः
इति अस्ति समीचीनं भगिनि अस्तु अग्रे नरेश महोदय
गच्छति गतवती गतवत्यौ गतवत्यः पुल्लिङ्गे गतवान् गतवन्तौ गतवन्तः क्षिपति क्षिप्तवती क्षिप्तवत्यौ क्षिप्तवत्यः पुल्लिङ्गे क्षिप्तवान् क्षिप्तवन्तौ क्षिप्तवन्तः
इति अस्ति समीचीनं महोदय धन्यवादः गीताञ्जलिभगिनी अग्रे
जपति जपितवती जपितवत्यौ जपितवत्यः नयति नीतवती नीतवत्यौ नीतवत्यः
इदानीं पुल्लिङ्गे
पुल्लिङ्ग नीतवान् नीतवन्तौ नीतवन्तः
जपितवान्
जपितवान् जपितवन्तौ जपितवन्तः
हा समीचीनं भगिनि धन्यवादः तनय महोदय
आं महोदय तिष्ठति एतस्य स्त्रीलिङ्गरूपं स्थितवती स्थितवत्यौ स्थितवत्यः पुल्लिङ्गरूपं स्थितवान् स्थितवन्तौ स्थितवन्तः कूजति एतस्य पुल्लिङ्ग श्रीलिङ्गरूपं कूजितवती कूजितवत्यौ कूजितवत्यः एतस्य पुल्लिङ्गरूपं कूजितवान् कूजितवन्तौ कूजितवन्तः
समीचीनं महोदय धन्यवादः हा अग्रे भानुचेतनी महोदय
पृच्छति पृष्टवान् पृष्टवन्तौ पृष्टवन्तः पृष्टवती पृष्टवत्यौ पृष्टवत्यः
कथयति
कथयति कथितवान् कथितवन्तौ कथितवन्तः कथितवती कथितवत्यौ कथितवत्यः
हा इति अस्ति समीचीनं समीचीनं महोदय धन्यवादः रघुपति महोदय अग्रे
हा महोदय शृणोति श्रुतवती श्रुतवत्यौ श्रुतवत्यः हसितवती हसितवत्यौ हसितवत्यः श्रुतवान् श्रुतवन्तौ श्रुतवन्तः हसितवान् हसितवन्तौ हसितवन्तः
इति अस्ति समीचीनं महोदय हा अग्रे हरिं महोदय
चलति चलितवती चलितवत्यौ चलितवत्यः क्रीडति क्रीडितवती क्रीडितवत्यौ क्रीडितवत्यः चलितवान् चलितवन्तौ चलितवन्तः क्रीडितवान् क्रीडितवन्तौ क्रीडितवन्तः
समीचीनं महोदय धन्यवादः हा अग्रे सन्ध्या भगिनी गायति
क्षम्यतां गायति गीतवान् गीतवत्यौ गीतवत्यः
गीतवती स्त्रीलिङ्गे स्त्रीलिङ्गे खलु
ओ गीत गीतवत्यः
किन्तु एकवचने गीतवती
ओ किम् ओ अहं
गीतवान् इति उक्तवती अतः
तर्हि पुनः गीतवती गीतवत्यौ गीतवत्यः, गीतवान् गीतवन्तौ गीतवन्तः.
समीचीनं.
सप्तवती सप्तवत्यौ सप्तवत्यः, सप्तवान् सप्तवन्तौ सप्तवन्तः.
समीचीनं भगिनि, धन्यवादः. हा, अग्रे नरेश महोदय.
श्रूयते. शैतवती शैतवत्यौ शैतवत्यः, पुल्लिङ्गे शैतवान् शैतवन्तौ शैतवन्तः. जानीते. यातवती यातवत्यौ यातवत्यः, पुल्लिङ्गे यातवान् यातवन्तौ यातवन्तः.
समीचीनं महोदय, धन्यवादः. गीताञ्जलि भगिनी अग्रे.
यतते यत्सवति यत्सवत्यौ यत्सवत्यः, यत्सवान् यत्सवन्तौ यत्सवन्तः. लभते त्रिलिङ्गरूपं, लब्धवती लब्धवत्यौ लब्धवत्यः, पुल्लिङ्गे लब्धवान् लब्धवन्तौ लब्धवन्तः
इति अस्ति. समीचीनं. हा, इदानीम् एतत् कुर्मः. एतस्मिन्नेव पुटे इदानीं वयं किं कुर्मः इत्युक्ते, तत्र पीतवती पीतवत्यौ पीतवत्यः यदस्ति, तत्र सा ते ताः इति संयोजनं कृत्वा वदामः. अस्तु, तत्र तनय् महोदय पिबति इति आरम्भतया सा पी, केवलं स्त्रीलिङ्गरूपं.
आम् महोदय. सा पीतवती, ते पीतवत्यौ, ताः पीतवत्यः, सा कृतवती, ते कृतवत्यौ, ताः कृतवत्यः.
हा, इदानीम् अग्रिमं, किन्तु तत्र भवति इति, भवती उदितवती.
आम् महोदय. भवती भवती उदितवती, भवत्यौ उदितवत्यः, भवत्यः उदितवत्यः.
द्विवचने पुनरेकवारं.
भवत्यौ उदितवत्यौ.
हा, भवत्यौ उदितवत्यौ. समीचीनं महोदय. हा, अग्रिममपि करोति वा? भवति इति. हा, भवति इति.
भवति भवती दृष्टवती, भवत्यौ दृष्टवत्यौ, भवत्यः दृष्टवत्यः.
हा, समीचीनं महोदय, धन्यवादः. हा, अग्रे भानुचेतनी महोदय. भवती
महोदय, किं करणीयं महोदय?
तत्र अस्मिन्नेव पुटे महोदय, पुनरेकवारं यद्यदस्ति तत् कुर्मः. इदानीं तत्र नामपदं नामपदमपि वदामः. तत्र गतवती इति अस्ति, गच्छति इति, गच्छति अपि, तत्र भवती गतवती इति.
भवती गतवती, भवत्यौ भवत् भवत्यौ गतवत्यौ, भवत्यः गतवत्यः. भवान्
भवान् त्यजतु, केवलं स्त्रीलिङ्गं, केवलं स्त्रीलिङ्गं वदामः. केवलं स्त्रीलिङ्गम्. अग्रिमं क्षिपति अपि भवति,
अग्रिमं पदमपि क्षिपति. भवति क्षिप्तवती, भवत्यौ क्षिप्तवत्यौ, भवत्यः क्षिप्तवत्यः.
हा, समीचीनं महोदय, धन्यवादः. रघुपति महोदय अग्रिमम्
जपति. ओके. भवती जपितवती, भवत्यौ जपितवत्यौ, भवत्यः जपितवत्यः. नयति. भवती नीतवती, भवत्यौ नीतवत्यौ, भवत्यः नीतवत्यः.
हा, इति अस्ति. समीचीनं महोदय. अग्रे हरि महोदय.
भवती हितवती,
भवत्यौ हितवत्यौ भवत्यः हितवत्यः भवती पूजितवती भवत्यौ पूजितवत्यौ भवत्यः पूजितवत्यः
इति अस्ति समीचीनं नरेश महोदय एतद् भवान् उक्तवान् खलु अस्तु अस्तु गीताञ्जलि भगिनी अपि न कृतवती अस्तु वदतु महोदय अग्रिमद्वयं हा पृच्छति इति
भवती पृष्टवती भवत्यौ पृष्टवत्यौ भवत्यः पृष्टवत्यः कथयति भवती कथितवती भवत्यौ कथितवत्यौ भवत्यः कथितवत्यः
हा समीचीनं महोदय धन्यवादः गीताञ्जलि भगिनी अग्रिमद्वयं
शृणोति भवती कृतवती भवत्यौ कृतवत्यौ भवत्यः भवत्यः हसति भवती कथितवती भवत्यौ कथितवत्यौ भवत्यः भवत्यः
हसितवत्यः समीचीनं भगिनि अस्तु हा अतः तत्र क्रियापदस्य अभ्यासमपि नूतनरूपस्य अभ्यासमपि जातं तत्र कर्तृपदमपि संयोजनं कृत्वा नामपदमपि तत्र स्थापयित्वा तस्य अपि अभ्यासं जातम् अस्तु समीचीनम् अस्ति इदानीं एकं भूतकालस्य रूपं वयं कर्तुं शक्नुमः अग्रिमवर्गे अन्यत् रूपमपि तद् पश्यामः अग्रिमसप्ताहान्ते सर्वे आगन्तुं शक्नुवन्ति न वा इति सूचयन्तु प्रायशः वर्गः न भवति इति चिन्तयामि अग्रिमरविवासरे अतः अग्रिमरविवासरे वर्गः न भवति तस्य अग्रे अतः पञ्चदश चतुर्दशदिनानन्तरम् अस्तु अस्तु प्रश्नः अस्ति वा
महोदय पूर्वं मया एकम् ई पत्रं
दृष्टवान् अहम् उत्तरं प्रेषयामि महोदय अस्तु अस्तु समयः जातः विरमाम सर्वेभ्यो नमः धन्यवादः
धन्यवादः
अग्रिमवर्गे मिलामः नमस्कारः
हरि ओम् महोदय धन्यवादः शुभरात्रिः
धन्यवादः महोदय
धन्यवादः महोदय नमस्कारः